सद्गुरुदेव की जय। श्री संत्रामास्तकम् श्रीया विभूत्या च विराजितं सदा कपोलकांत्या सुभगं सुचिस्मितं विराजमानाय तबाहुयुग्मकं तं संतरामं सततं नतोऽस्म्यहम् सुखं ददन्तं भजतां च भो प्रभो नामानि रूपाणि च मंगलानि ते सुखावतीर्णं जगतां हिताय वै तमसंतरामं सततं नतोऽस्म्यहम् दमेन शोचा च मनादिभिः सदा जितेन्द्रियान्तः करणं यतीश्वरं सुनासिकं पद्मपलाशलोचनं तं संतरामं सततं नतोऽस्म्यहम् स्वकीयकान्त्या बहुधा सुशोभितं खलस्य शान्त्यै स्वजनोदयाय च कृतावतारं नयनस्य नन्दनं तं संतरामं सततं नतोऽस्म्यहम् अनात्मनित्यक्तनिजाभिमानकम् आत्मावभासेन प्रसन्नमानसं वीतायमानं मनुजेष्वनुग्रहं तं संतरामं सततं नतोऽस्म्यहम् सुवर्णमुक्ता मणिभिः समन्नतो विरोचमानं मुकुटं च मूर्धनि विशालभालं विद्वद्यन्तमायतं तं संतरामं सततं नतोऽस्म्यहम् दिगन्तरव्याप्तमहद्यश प्रभो मनोगतं प्राप्तमनोरथं तथा अहर्निशं ध्यानपरायणं गुरुं तं संतरामं सततं नतोऽस्म्यहम् स्वयं स्वशिष्यानुपदेशकारिणं मुदा द्विजेभ्यो बहुमानदायकं पृथ्वीषु नित्यं भ्रममाणमीश्वरं तं संतरामं सततं नतोऽस्म्यहम् यः शुचिः प्रयतः प्रातः संतरामास्तकं पठे तस्य सर्वाणि कार्याणि सिद्ध्यन्ति मोक्षमश्नुते इति श्री संत्रामास्तकं सम्पूर्णम्।